अथ श्रीशुक्रास्त्रोत्तरशतनामस्तोत्रम्
शुक्रस्तुतिस्शुभगुणस्शुभदःशुभलक्षणः शोभनाक्षशुभ्ररूपस्शुद्धस्फटिकभास्करः दीनार्तिहारको दैत्यगुरुर्देवाभिनन्दितः काव्यासक्तः कामपालः कविः कल्याणदायकः भद्रमूर्तिर्भद्रगुणो भाग्यवो भक्तपालनः भोगजो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः निधिर्निखिलशास्त्रज्ञो नीतिविद्यादुरन्धरः सर्वलक्षणसम्पन्नः सर्वावगुणवर्जितः समानाधिकनिर्मुक्तः सकलागमपारगः भृगुर्भोगकरो भूमीसुरपालनतत्परः मनःश्रीमानदो मान्यो मायातीतो महाशयः बलिप्रसन्नो भयदो बली बलपराक्रमः भवपाशपरित्यागो बलिबन्धविमोचकः धनाशयो धनाध्यक्ष तम्बुग्रीवकलाधरः कारुण्यरससम्पूर्णः कल्याणगुणवर्धनः श्वेताम्बरश्वेतवपुश्चतुर्भुजसमन्वितः अक्षमालाधरोचिन्त्य अक्षीरगुणभासुरः नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः वर्षप्रदो ऋषिकेशक्लेशनाशकरः कविः चिन्तितार्थप्रदश्यान्तमतिश्चित्तसमाधिकृत् आभिव्याधिहरो भूरिविक्रमपुण्यदायकः पुराणपुरुषपूज्यः पुरुभूतादिसन्नुतः अजेयो विजिताराजुर्विविधाभरणोज्ज्वलः कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः रत्नसिंहासनारूढो रथस्थोरजितप्रभः सूर्यप्राज्ञेशसञ्चारस्तुरशत्रुस्तुहृत्कविः तुलावृषभराशीष दुर्धरो धर्मपालकः भाग्यजो भव्यचारित्रो भवपाशविमोचकः गौरदेशेश्वरो गोप्ता गुणी गुणविभूषणः ज्येष्ठा नक्षत्रसम्भूत ज्येष्ठश्रेष्ठस्तुजिस्मितः अपवर्गप्रदोऽनन्तः सन्तानफलदायकः सर्वैश्वर्यप्रदः सर्वजीर्वाणगणसन्नुतः।